एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वकारेण सप्तमः संविधान दिवस दिनत्रयम् यावत् विभिन्नान् कार्यक्रमान् विधाय भव्यरूपेण समायोक्ष्यते। प्रधानमन्त्रिणः शेरबहादुर देउवाभिधस्य अध्यक्षतायाम् प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये गतदिने उपविष्टेन सम्बद्ध पदाधिकारिभिः सहितेन उपवेशेन आगामिनः आश्विन मासस्य द्वितीय तृतीय चतुर्थ दिवसेषु संविधान दिवसम् आयोजयितुम् निर्णीतम् वर्तते। उपवेशेन प्रधानमन्त्रिणो देउवाभिधस्य अध्यक्षतायाम् दिवसमम् आयोजयितुम् मूल समारोह समितिम् अन्याः विविधाः विषयगताः उपसमितिश्च संघटयितुम् निर्णीतमिति प्रधानमन्त्रिणो नैज सचिव बद्री तिवारी अज्ञापयत्। उपवेशेन संविधान दिवसस्य अवसरे अशेष नागरिकान् स्वतस्फूर्त रूपेण दीपावलिम् विदातुम् विदेशस्थितेषु नेपाली नियोगेषु निकायेषु च नेपाली ध्वजम् उत्तोलयितुम् च अनुरोद्धुम् निर्णीतमस्ति। पर्वत जनपदस्य विभिन्नेषु भागेषु गतरात्रौ दुरापन्नेन भूस्खलनेन अष्टौ जना पूरिताः सन्ति। घटनायाः विस्तृत विवरणस्य प्राप्तिः अवशिष्टा स्थिति अस्माकं पर्वत जनपद संवाददाता रोशन तिवारी ज्ञापयति। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य अन्तर्गतम् अद्य ग्राम नगर वडा क्षेत्राधिवेशनम् प्रारभमाणम् वर्तते। अधुनावधि प्रकाशित क्रियाशील सदस्यता नामावलीनाम् 65 जनपदानाम् वडा क्षेत्रेषु अद्यतो वडाधिवेशनम् प्रारभमाणमस्तीति कांग्रेस दलस्य केन्द्रीय निर्वाचन समितिः ज्ञापयति। प्रकाशित नामावलीषु सम्बद्ध जनपदेषु जनपद निर्वाचनाधिकृतान् सम्प्रेष्य निर्वाचनाय आवश्यक सामग्र्यश्च प्रेषिताः सन्तीति केन्द्रीय निर्वाचन समितेः संयोजकः महादेव प्रसाद यादव अबोधयत। नेपाली कांग्रेस दलस्य प्रवक्ता विश्वप्रकाश शर्मा अवशिष्टानाम् एकविंशते जनपदानाम् क्रियाशील सदस्यता नामावली क्रमशः प्रकाशयिष्यते एवम् अस्यैव भाद्रमासस्य सप्तविंश दिवसाय निर्धारितेन ग्राम नगराधिवेशनेन सह सर्वेषाम् वडा क्षेत्राणाम् अधिवेशनम् सम्पत्स्यते इति अज्ञापयत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल कथयति आगामिने चतुर्दश महाधिवेशनाय पारस्परिक सहमत्या एक प्रत्याशी अग्रे सारयिष्यते। कांग्रेस दलस्य अद्य प्रारम्भमाणस्य वडा क्षेत्राधिवेशनस्य सन्दर्भे महामन्त्रिणा डाक्टर शशांक कोइराला विदस्य शेखर कोइराला प्रकाशमान सिम्ब अर्जुन नरसिम्ह केसी डाक्टर मिनेन्द्र रिजाल सुजाता कोइराला चेती नेत्रीणाम् च सहभागितायाम् ह्यः आयोजिते पत्रकार सम्मेलने वरिष्ठ नेता पौडेलः अगदत् कांग्रेस दलम् विधेय पद्धतेश्च अनुरूपम् अग्रे वर्धापनीयम्। वरिष्ठ नेता पौडेलः अवोचत् दलस्य न्यूनता दुर्बलताः अपाकृत्य दलम् लोकतान्त्रिकम् नेपाली जनतायाः विश्वसनीयम् च विधातव्यम्। सर्वोच्च न्यायालयेन सांविधानिक परिषद सम्बद्धादेशेन सम्बद्धस्य विवादस्य श्रवणम् तत्कालम् न विधातुम् अन्तरिमादेश प्रदत्तो वर्तते। न्यायाधीशस्य हरिप्रसाद फुयालस्य एकल न्यायपीठेन सांविधानिक न्यायपीठे प्रधान न्यायाधीशेन स्थेयम् न वेति विषये पञ्जीकारितस्य आदेशाभियाचन निवेदनस्य अन्तिम निर्णयनम् यावत् सांविधानिक न्यायपीठे अध्यादेशेन सम्बद्धस्य विवादस्य श्रवणम् न विधातुम् ह्य अन्तरिमादेश प्रदत्तोऽस्ति। दाचुला जनपदे रज्जुसेतोः तरणस्य क्रमे निपत्य विलुप्तस्य जयसिंहधामी इत्यस्य घटनायाः विषये अनुसन्धान समितेः निष्कर्षस्य आधारेण कूटनीतिकम् प्रयत्नम् विधातुम् गृहमन्त्रालयेन परराष्ट्र मन्त्रालयाय पत्राचार विहितोऽस्ति। घटनाम् अनुसन्धातुम् संघटितया समित्या प्रतिवेदनस्य अर्पणस्य द्वितीयस्मिन् दिने ह्यः मन्त्रालयेन आवश्यक कूटनीतिक प्रयत्नाय परराष्ट्र मन्त्रालयाय पत्राचारो विहिता इति गृहमन्त्रालयस्य प्रवक्ता फणीन्द्रमणि पोखरेलः ज्ञापितवान्। नेकपा एमाले दलेन दार्चुला जनपदस्य रज्जुसेतो घटनाया सम्बन्धे अनुसन्धानाय संघटितया समित्या अर्पितम् प्रतिवेदनम् सार्वजनिकर्तुम् अभियाचितमस्ति। एमाले दलस्य प्रवक्त्रा प्रदीप ग्यवालिना यः विज्ञप्तिम् प्रकाशयता घटनाया सम्बन्धे अर्पितम् प्रतिवेदनम् सार्वजनिकर्तुम् याचितमस्ति। प्रवक्ता ग्यवाली दोषिणः दण्डयितुम् पीडित परिवाराय न्यायम् सुनिश्चेतुम् च अभ्ययाचत। प्रधानमन्त्रिणः शेरबहादुर देउवाभिधस्य नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये मेलवार्ता सम्भूता अस्ति। सत्ता गठबन्धनस्य शीर्षनेतृद्वयस्य ह्यः वाल्वाटार वर्तिने प्रधानमन्त्री निवासे सम्पन्ने मेलने मन्त्रिपरिषद विस्तारस्य सर्वकार सञ्चालनस्य सामयिक राजनीतिश्च विषयेषु विमृष्टमिति प्रधानमन्त्रिणा सचिवालयेन ज्ञापितं वर्तते। ह्य एव माओवादी केन्द्रस्य अध्यक्षस्य प्रचण्डस्य नेकपा एकीकृत समाजवादी दलस्य अध्यक्षस्य माधव कुमार नेपालस्य च मध्येऽपि मेलवार्ता सम्भूता। सिम्मा प्रासादवर्तिनी माओवादी दलीय संसदीय दलस्य कार्यालये सम्पन्नं मेलनं सर्वकारे सहभागिताया विषये केन्द्रितम् अभवत् इति अध्यक्षस्य प्रचण्डस्य सचिवालयेन ज्ञापितमस्ति। प्रधानमन्त्री शेरबहादुर देउवा नेपाली कांग्रेस दलस्य वर्तमाने वडा क्षेत्राधिवेशने प्रत्येकं वडा क्षेत्रे दलितं मुस्लिम समुदायो अनिवार्यं प्रतिनिधित्वं कारयितुं प्रतिबद्धतां व्यनक्ति। कांग्रेस दलस्य सभापतिश्च प्रधानमन्त्री देउवा आत्मनः दलस्य केन्द्रीय सदस्ययो मानबहादुर विश्वकर्मा जीवन परियार चेत्यनयोश्च मध्ये यो बालवाटार वर्तिनी प्रधानमन्त्री निवासे सम्पन्ने मेलने एवं प्रतिबद्धताम् अभिव्यनक। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल दशसूत्रीय सहमति पत्रस्य भ्रमं न धृत्वा नेकपा एकीकृत समाजवादी दले समाविष्टा भवितुम् एमाले दलस्य नेतृन कार्यकर्तृन च अनुरुणद्धि। नेकपा एकीकृत समाजवादी दलस्य संसदीय दलस्य नेतरी चयनानन्तरं इह पदभारं निर्वहन् अध्यक्षो नेपाल अगदत् दशसूत्रीया सहमति दलैकताया अपेक्षया सीमित व्यक्तिनां स्वार्थे केन्द्रिता स्थिति हेतो तस्या औचित्यं नास्ति। अध्यक्ष नेपाल भाद्रस्य द्वाविंशस्य दिवसस्य अनन्तरमेव मन्त्रिपरिषदा पूर्णताम् अवाप्स्यते इति ज्ञापितवान्। जसपा नाम्नो जनता समाजवादी दल नेपालस्य अध्यक्ष उपेन्द्र यादव वदति अस्यैव भाद्रस्य द्वाविंश दिवसस्य पश्चात् सर्वकारः पूर्णताम् प्राप्स्यति। जसपा दलाध्यक्षो यादव यः जनकपुर विमानस्थले सञ्चारकर्मिभिः अवदत् निर्वाचनायोगेन दलचयनाय भाद्रस्य द्वाविंशं दिवसं यावत् समयसीमा निर्धारिता स्थिति हेतोः तदनन्तरं मन्त्रिमण्डलं विस्तारयिष्यते। अध्यक्षो यादव गणतन्त्रस्य संरक्षणपूर्वकम् अनुचितचिन्तन प्रवृत्त्योर्विरुद्धे योद्धुं वर्तमानं घटबन्धनं संघटितमिति तर्कयन् अकथयत् घटबन्धनस्य उद्देश्यस्य प्राप्तिं यावत् एकता यथावत् तिष्ठति। अर्थमन्त्री जनार्दन शर्मा निगदति दैनिकोपभोग्य वस्तूनाम् उत्पादकानाम् उद्योगानाम् स्थापनम् सञ्चालनम् च सर्वकारेण विशेष प्राथमिकतायाम् संस्थापिते स्तः। आङ आईएफसी नाम्ना अन्ताराष्ट्रिय वित्त निगमेन ह्य आयोजिते सर्वदृश्योपवेशे असौ अब्रवीद् उत्पादनमूलकोद्योगान् विकसयितुं प्रवर्धयितुं च सर्वकारेण विशेष ध्यानं प्रदत्तमस्ति। वर्तमान सर्वकारः नेपालस्य अर्थतन्त्रस्य उत्पादनोन्मुखतायाः दिशि अभिमुखो स्थिति चर्चयन् मन्त्री शर्मा अभाषत दैनिकोपभोग्य वस्तूनाम् उत्पादकैः उद्योगैः सह स्वल्प मध्यमोद्योगानां सञ्चालनाय निगमेन साकं सहकार्यं विधातुं शक्यते। द्वितीय प्रदेशे नेकपा एमाले दलस्य एकादशभि प्रदेश सभा सदस्यै नेकपा एकीकृत समाजवादी दलं प्रचितं वर्तते। जनकपुर धामस्थिते प्रदेश निर्वाचन कार्यालये गतदिने दशभिर जनै स्वयं उपस्थाय उपचाराय देशात् बहिस्थितेन दिल्ली उप्रेति इत्यनेन पत्रस्य माध्यमेन च सत्यापनं विहितम् इति प्रदेश निर्वाचन कार्यालयो ज्ञापयति। एवमेव द्वितीय प्रदेशे जसपा नाम्नो जनता समाजवादी दलस्य प्रह्लाद गिरी इत्यनेन लोसपा नामकं लोकतान्त्रिक समाजवादी दल नेपालाभिधं प्रचितं वर्तते। नेपाले ह्यातिरिक्तेषु सहस्रद्वय चतुर्षुच जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। ह्य अतिरिक्ता सहस्रं षट् चत्वारिंशद् अधिकाष्टौ शतञ्च जना कोरोना संक्रमणात् मुक्ता सन्ति। कोरोना संक्रमणेन आराष्ट्रं ह्य अतिरिक्ता षोडश जना मृता वर्तन्ते।